इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः ललितमोहनः तिवारी। आदौ मुख्य वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी मुद्रा योजनायाः दशाब्दपूर्तौ उक्तवान् यत् योजनेषा उद्यमिनां सशक्तकरा एका जागृता क्रान्ति अस्तीति। प्रधानमन्त्रिणा दुबई देशस्य युवराजेन प्रिंस शेख हमदान इत्यनेन सह मेलनं कृतम्। भारत यूएई इत्येतयोः सम्बन्धान् सुदृढीकरणे दुबई इति क्षेत्रस्य महत्वपूर्णा भूमिका अस्तीति च तेन प्रख्यापितम्। जम्मू कश्मीरे त्रिभिः अन्यैः राजनीतिक संगठनैरपि पृथक्तावादिना हुर्रियत कॉन्फ्रेंस इत्यनेन आत्मानं पृथकीकृतम्। गृहमन्त्री अमित शाहश्च अस्य पदक्षेपस्य स्वागतम् अकरोत्। सर्वकारेण एकं राज्यं एकं आरआरबी इति नीत्यनुसारं 26 क्षेत्रीय ग्रामीण वित्तकोषाणां विलयस्य घोषणा कृता। चीनदेशेन अमेरिकादेशस्य राष्ट्रपतिनः ट्रम्पस्य 50% अतिरिक्त टैरिफ इत्यस्य घोषणां बलात् भयोत्पादनस्य नीतिः अस्ति इति उक्तम्। अपि च आईपीएल 20-20 इति क्रिकेट स्पर्धायां लखनऊ सुपर जायंट्स इति दलेन आतिथ्यधायिनः कोलकाता नाइट राइडर्स इति दलस्य पुरतः 38-200 धावनांकानां लक्ष्यं समुपस्थापितम् अस्ति। अथ वार्ताः विस्तरेण। प्रधानमन्त्री मुद्रा योजना इत्यस्याः 10-वर्षपूर्त्यवसरे श्रीमोदी उक्तवान् यत् अनया योजनया अनेकेषां जनानां स्वप्नानि पूर्णानि जातानि। प्रधानमन्त्री प्रोक्तवान् यत् देशे मुद्रा योजनायाः लाभार्थिनः 50% अनुसूचितजातीयायाः जनजातयः अन्ये च पश्चवर्तिवर्गसमुदायाः च सन्ति। स अवदत् यत् अस्याः योजनायाः 70% लाभार्थिनः महिलाः सन्ति। प्रधानमन्त्री स्वनिवासस्थाने योजनाया लाभार्थिभिः सह परिचर्चां कृतवान्। सः अवदत् यत् मुद्रा योजना इत्यनया असंख्यजनेभ्यः स्वस्याः उद्यमशीलतायाः कौशलं प्रदर्शयितुम् अवसराः प्रदत्ताः। लाभार्थिभिः सह वार्तालापसमये प्रधानमन्त्रिणा उक्तं यत् देशस्य यूनां कृते साहसं दातुम् एषा मुद्रा योजना आरब्धा इति। स अवदत् यत् यूनां वृत्त्यर्थं तान आत्मविश्वासेन च पूरयितुम् अस्याः योजनायाः उद्देश्यं वर्तते।
हमारे देश में बहुत कम लोग हैं जिनको इन चीजों की समझ है कि साइलेंटली कैसे रिवॉल्यूशन हो रहा है, लेकिन आज भारत का युवा उसके पास जो एंटरप्रेन्योर स्किल है अगर उसको हैंड होल्डिंग हो जाए, थोड़ी उसको मदद मिल जाए तो बहुत बड़े परिणाम लाता है। और इस मुद्रा योजना में किसी सरकार के लिए भी ये आंख खोलने वाला विषय है। ये सबसे ज्यादा लोन के लिए अप्लाई करने वाली महिला है, सबसे ज्यादा लोन प्राप्त करने वाली महिला है और सबसे जल्दी रिपेमेंट करने वाली भी महिला है। यानी ये नया क्षेत्र विकसित भारत के लिए जो संभावना है ना, वो इस शक्ति में पड़ी हुई है, वो दिखाई दे रहा है। और बिना गारंटी को आपको पैसा मिलना, और मैं चाहता हूं कि मेरे देश के नौजवान ज्यादा से ज्यादा इस क्षेत्र में आए। आप देखिए 33,00,000 करोड़ रुपया ये देश के लोगों को बिना गारंटी दे दिए गए हैं।
अस्मिन् अवसरे लाभार्थिनः प्रधानमन्त्रिणे स्वस्याः उद्यमशीलतायाः अनुभवान् अवदन्। प्रधानमन्त्री मुद्रा योजना सूक्ष्म लघु उद्यम वर्गीय जनेभ्यः 20,00,000 रूप्यकाणि यावत् ऋणं प्रददाति। विगत 10 वर्षेषु अस्याः योजनायाः अन्तर्गतं 50% अधिक जनेभ्यः ऋणं स्वीकृतम् इति। विदेश मन्त्रिणा डॉक्टर सुब्रह्मण्यम जयशंकरेण दुबई भारतयोर्मध्ये सम्बन्धान् वर्धनम् उद्दिश्य दुबई नरेशस्य सुतेन शेख हमदान बिन मोहम्मद अल मकतूम इत्यनेन सह मेलनं कृतम्। दुबई इति क्षेत्रस्य युवराजेन यो हि तत्रत्यः उपप्रधानमन्त्री रक्षामन्त्री चाप्यस्ति। सम्प्रति द्विदिवसीयायां भारत यात्रायां नवदिल्लीं सम्प्राप्तोऽस्ति। युवराजत्वेन एषा तस्य प्रथमा आधिकारिकी भारतयात्रा अस्ति। प्रधानमन्त्रिणा नरेन्द्र मोदिना तस्य मध्याह्न भोजनस्य आयोजनं विहितम्। प्रधानमन्त्रिणा दुबई देशस्य युवराजेन प्रिंस शेख हमदान इत्यनेन सह मेलनं कृतम्। भारत यूएई इत्येतयोः सम्बन्धान् सुदृढीकरणे दुबई इति क्षेत्रस्य महत्वपूर्णा भूमिका अस्तीति च तेन प्रख्यापितम्। युवराजः अद्य सन्ध्यायां मुम्बई नगरं प्रति प्रस्थास्यति, यत्र सः उभयोर्देशयोः शीर्षोद्यमिभिः समं चक्रमञ्ची उपवेशने प्रातिभाग्यं विधास्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः निज पुर्तगाल देशस्य यात्रायाः द्वितीय अन्तिमे च दिवसे प्रधानमन्त्रिणा लुईस मोरे नेग्रो वर्येण सह मेलनं विहितवती। ध्यातव्यमस्ति यत् राष्ट्रपतिः द्रौपदी मुर्मू ह्यः लिस्बन नगरे राष्ट्रपतिना मार्सेलो रेबेला वर्येण सह प्रतिनिधि मण्डलस्तरीय परिचर्चां विहितवती। पुर्तगालस्य असेम्बलिया द रिपब्लिका इति संसदः अध्यक्षः राष्ट्रपतेः द्रौपदी मुर्मू वर्यायाः स्वागतम् अकरोत्। सममेव सा गार्ड ऑफ ऑनर इति सम्मानम् अपि उपलब्धवती। सा असेम्बलिया द रिपब्लिका इति संसदा सभापतिना जोस पेड्रो एगुइयर ब्रैंको इत्यनेन सह परिचर्चाम् अपि विहितवती। विदेश मन्त्रालयस्य आधिकारिक प्रवक्तानुसारम् उभयो पक्षयो सम्बन्धान् सुदृढीकरणेति विषये परिचर्चा सञ्जाता। केन्द्रीय गृहमन्त्री अमित शाह अद्य श्रीनगरस्य राजभवने उच्चस्तरीय उपवेशनस्य आध्यक्षम् अकरोत्। अस्मिन्नोपवेशने जम्मू कश्मीरे चलायमानानां विकास परियोजनानां प्रगतीनां समीक्षां व्यदधात्। अस्मिन् उपवेशने उपराज्यपालः मनोज सिन्हा, मुख्यमंत्री उमर अब्दुल्ला, अन्ये च गणमान्य जनाः समुपस्थिताः आसन्। ध्यातव्यमस्ति यत् जम्मू कश्मीरे त्रिभिः अन्यैः राजनीतिक संगठनैरपि पृथक्तावादिना हुर्रियत कॉन्फ्रेंस इत्यनेन आत्मानं पृथकीकृतम्। गृहमंत्री अमित शाह अस्य पदक्षेपस्य स्वागतम् अकरोत्। कृषक कल्याण मंत्री शिवराज सिंह चौहान, इज़राइल देशस्य कृषि मंत्री अवीदी खतेरः इत्येताभ्याम् अद्य नवदिल्ल्यां कृषिक्षेत्रेषु द्विपक्षीय सहयोगाधारितेषु सन्धिपत्रेषु हस्ताक्षरे विहिते। श्रीचौहानेन सम्मेलनमिमं सम्बोधयता प्रोक्तं यत् इज़राइल भारतयोर्मध्ये द्विपक्षीय सहयोगाग्रे वर्धमान अस्तीति। तेनोक्तं यत् उभावपि देशौ कृषि नवाचार जल प्रौद्योगिकी आदिषु क्षेत्रेषु औत्कृष्ट्यं सहयोगं विदधत। तेनोक्तं यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे प्रशासनं लघु कृषकेभ्यः कृषिम् इतोप्यधिकतया लाभकरं कर्तुं प्रयासरतम् अस्ति।
R&D के क्षेत्र में हमारे वैज्ञानिक ICR के माध्यम से और मसाब जो इजराइल की संस्था है जो काम कर रहे हैं, तो एक दूसरे के साथ मिलके हम और कैसे बेहतर काम कर सकते हैं ताकि आने वाले समय में जो फूड सिक्योरिटी की एक चुनौती है हम सबके सामने पूरी दुनिया के सामने उसका हम मुकाबला कर सके मिलकर। जलवायु अनुकूल कृषि क्लाइमेट चेंज के खतरों को कम करके हम कैसे ऐसे सीड्स का ऐसे बीज का निर्माण कर सकते हैं जो बढ़ते हुए तापमान में भी क्लाइमेट चेंज के खतरों को कम करके उत्पादन बढ़ा सके।
पेट्रोलियम अथ प्राकृतिक गैस इत्यस्य मंत्री हरदीप सिंह पुरी इत्येषः अमेरिका देशेन योजितानां टैरिफ इत्येतेषां प्रत्युत्तरे उक्तवान् यत् विषयेऽस्मिन् सावहित मनसा विश्लेषणस्य आवश्यकता अस्ति। अद्य नवदिल्ल्यां वार्ताहरैः सह भाषमाणेन मन्त्रिणा प्रोक्तं यत् सहसा विदधीत न क्रियाम् इत्यनुसारं पूर्वं टैरिफ इति विषये का प्रगतिः भविष्यति इति विचारणीयम् अस्ति।
Tariffs have various functions, and when one country imposes tariffs on the other, it has an effect which can make a revenue, it can have a trade distinct effect. Abhi, the process has just begun. All right, well, we need to have patience. It's not something like where you see a picture on the wall and immediately try to take shooting at it. And certainly on a important issue which involves India's largest trading partner, okay, and where economic interests are concerned, you know, we are talking about major things. I think we should exercise both circumspection and understanding and allow the situation to evolve.
सर्वकारेण एकम राज्यम एकम RRB इति नीत्यनुसारं 26 क्षेत्रीय ग्रामीण वित्तकोषाणां विलयस्य घोषणा कृता। चीन देशेन अमेरिका देशस्य राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन चीन देशीय वस्तुसु योजितस्य 50% टैरिफ इत्यस्य विषये तीव्रा कठोरा च प्रतिक्रिया प्रदत्ता अस्ति। अपि च IPL 20-20 इति क्रिकेट स्पर्धायां लखनऊ सुपर जॉयंट्स इति दलेन आतिथ्यधायिनः कोलकाता नाइट राइडर्स इति दलस्य पुरतः 38-200 धावनांकानां लक्ष्यं समुपस्थापितम् अस्ति इति वार्ताः।